इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्रमोदिना उक्तं केन्द्रस्य भाजपेति दलस्य सर्वकारः देशे आधारभूत संरचनायाः विकासक्रमे ध्यानं प्रददाति। छत्तीसगढ़े 27,000 कोटि रूप्यकाधिक विकास परियोजना समारब्धा। विश्वबैंक इत्यनेन वैश्विक प्रतिकूल परिस्थित्याः अनन्तरं 2023-24 वर्षस्य कृते सकल घरेलू उत्पाद वृद्धिदरः 6.3% एव स्थापितम्। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणः अद्य कोयम्बटूर नगरे लाभार्थिभ्यः प्रधानमन्त्री ऋण सहायतां वितरितवती। नेपालदेशे भूकम्पद्वयानन्तरम् अद्य राष्ट्रिय राजधानी दिल्ली समेत्य देशस्य उत्तरी भागेऽपि भूकम्पस्य अनुभवः जातः। बिहारराज्ये अनवरत वृष्ट्या कैमूर जनपदस्य विभिन्न स्थानेषु अकस्मात् जलाप्लव सदृशा स्थितिः सञ्जाता। प्रधानमन्त्री नरेन्द्रमोदिना उक्तं यत् केन्द्रे भारतीय जनता पार्टी इति दलस्य सर्वकारः देशे आधारभूत संरचनायाः विकासे विशेष ध्यानं प्रददाति। अद्य छत्तीसगढ़स्य जगदलपुरे प्रधानमन्त्रिणा उक्तं यत् विगतेषु नववर्षेषु आधारभूत सुविधानां विकासे व्ययं वर्धयित्वा 10,00,000 कोट्यावत् रूप्यकाणि कृतम्। श्रीमोदी प्रोदीरितवान् यत् विकसित भारतस्य स्वप्नं तदैव साकारः भविष्यति यदा देशस्य प्रत्येकं राज्यं ग्रामं जनपदं ग्रामाश्च विकसिताः भविष्यन्ति। तेनोक्तं यत् विकसित भारताय भौतिक डिजिटल सामाजिक क्षेत्राणां सम्बद्धा मूलभूत सुविधानां भविष्यस्य आवश्यकतानुसारं सज्जता कर्तव्या अस्ति। प्रधानमन्त्रिणा उक्तं यत् विगतेषु नववर्षेषु लौहोत्पादने भारतम् आत्मनिर्भरार्थम् अनेके महत्वपूर्ण निर्णयाः स्वीकृतम्। श्रीमोदिना प्रोदीरितं यत् वस्तरे नागर नारे इत्यत्र राष्ट्रिय खनिज विकास निगमस्य लौह संयन्त्रेण वाहनक्षेत्रं रक्षाक्षेत्रं च नूतनोर्जा प्राप्स्यते। तेन भणितं यत् वस्तरे विनिर्मितं लौहं न केवलं भारतीय सैन्यदलं सुदृढीकरोति अपितु भारतस्य रक्षानिर्यातमपि अग्रेसारयति। श्रीमोदिना उक्तं यत् वस्तरेत्यत्र संस्थापिता लौहसंयन्त्रेण छत्तीसगढ़े 50,000 यावत् यूनां वृत्त्यावसरः प्राप्यते। प्रधानमन्त्री नरेन्द्रमोदिना अद्य छत्तीसगढ़े आदिवासी वस्त्र संभागस्य संभागीय मुख्यालये जगदलपुरे 27,000 कोटि रूप्यकात्मकस्य विभिन्न विकास परियोजनानां शिलान्यासः विहितः। प्रधानमन्त्रिणा वस्तरे नगर नारे 24,000 कोटि रूप्यकाणां व्ययेन निर्मितं राष्ट्रिय खनिज विकास निगमस्य नूतन संयन्त्रमपि राष्ट्राय समर्पितम्। स्वजगदलपुर यात्रावधौ प्रधानमन्त्रिणा जगदलपुर लौहयान स्थानकस्य जीर्णोद्धार कार्यस्यापि शिलान्यासं कृतम्। तेन अन्तागढ़ तिरोकी इत्यनयोः मध्ये नूतन रेलमार्गं राष्ट्राय समर्पितम्। श्रीमोदिना जगदलपुर दन्तेवाड़ा इत्येतयोः मध्ये द्विगुणी रेलमार्ग परियोजनायाः अपि लोकार्पणं कृतम्। एतासां परियोजनाभिः जनजातीयक्षेत्रे रेलसम्पर्क सुधारः आर्थिकविकासः च भविष्यति। विश्वबैंकेन 2023-24 वित्तवर्षस्य कृते भारतस्य वृद्धिदरस्य अनुमानं 6.3% यावत् स्थापयितुं निर्णयः कृतः अस्ति। भारते अनेकानि बाह्यसमस्याः सन्ति चेदपि भारते नैरन्तर्येण सुदृढम् आर्थिकवृद्धिं दृष्ट्वा निर्णयोऽयं स्वीकृतः अस्ति। अप्रैल मासस्य स्वीय प्रतिवेदने विश्वबैंकेन 2023-24 वर्षे भारतस्य वृद्धिदरस्य अनुमानं पूर्वस्य 6.6%-6.3% यावत् न्यूनीकृतम् आसीत्। भारतस्य विकासस्य विषये विश्वबैंकस्य नवीनतम प्रतिवेदनानुसारं भारतस्य अर्थव्यवस्थायाः विषये अन्ताराष्ट्रिय वित्तीय संस्थानानां अर्थवार्षिक प्रमुख प्रतिवेदने उक्तं यत् प्रमुख वैश्विक समस्यानाम् उपारानन्तरं अपि भारतं 2022-23 वर्षे 7.2% वृद्धिदरेण द्रुततरं वर्धमाना प्रमुखा अर्थव्यवस्थायां सम्मिलितः आसीत्। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणः अद्य कोयम्बटूर नगरे लाभार्थिभ्यः 35,000 कोटिरूप्यकाणां ऋणसहायतां वितरितवती। समारोहे वदन् मन्त्री महोदया प्रोक्तवती यत् सर्वप्रकारस्य सर्वकारीय सहायतायाः कृते आकांक्षित जनपदेषु प्राथमिकता प्रदीयते। क्रेडिट आउटरीच प्रोग्राम इति ऋण वितरण कार्यक्रमस्य अन्तर्गतं ऋणं वितरितवती। वित्तमन्त्री उक्तवती यत् सर्वकारः जागरूकतां सृजति, ग्रामीण कृषकाः, उद्यमिनः च लघु उद्यमिभ्यः, व्यापारिभ्यः च प्रदत्तानां अनुदानानां ऋणानां च विषये अवगता भवेयुः इति सुनिश्चितं कुर्वन् अस्ति। नेपालदेशे 4.2 तीव्रतायुक्तौ भूकम्पद्वयानन्तरम् अद्य राष्ट्रिय राजधानी दिल्ली समेत्य देशस्य उत्तरीभागेऽपि भूकम्पस्य अनुभवः जातः। राष्ट्रिय भूकम्प विज्ञान केन्द्रेण उक्तं यत् भूकम्पस्यास्य केन्द्रं नेपाले 5 किलोमीटर यावत् अधः आसीत्। बिहारराज्ये अनवरतवृष्ट्या कैमूरजनपदस्य विभिन्न स्थानेषु अकस्मात् जलाप्लव सदृशा स्थितिः सञ्जाता। अनवरतवृष्ट्या कर्मनासा, दुर्गावती, सुवारादि सामयिक नद्यः उच्च जलस्तरेण भभुआ नगरे कतिपय भवनानि, चिकित्सालयः, कार्यालयश्च जलमग्नः सञ्जाता। डीएवी विद्यालये, कस्तूरबा गांधी आवासीय विद्यालय परिसरे च जलाप्लवेन आपत अवस्थायां विद्यालयीय छात्राः संरक्षिताः। कैमूरस्य जनपदाधिकारी उक्तं यत् प्राथमिक स्वास्थ्य केन्द्रात् गर्भवती महिलाभिः साकं अन्येभिः रुग्णाः संरक्षिताः। जनपदाधिकारिणा प्रोक्तं यत् स्थित्यानुसारं आपत प्रबन्धन दलं उच्च सतर्कतायां स्थापितं वर्तते। ऋतुविभागेन अद्य रोहतास, कैमूर, गया, औरंगाबाद इत्यत्र अपि च समीपस्थ विभिन्न जनपदेषु अपि अतिवृष्टेः संचेतना ख्यापिता। डोमिनिकन गणराज्यस्य उपराष्ट्रपतिः राकेल पेना रोड्रिग्ज अद्य राष्ट्रपति भवने राष्ट्रपति पदासीना द्रौपदी मुर्मू इत्यनया सह मिलितवती। उपराष्ट्रपतेः भारतस्य प्रथमयात्रायां स्वागतं कुर्वन्ती राष्ट्रपतिः मुर्मू प्रोक्तवती यत् अस्य भ्रमणस्य समयः अतीव उपयुक्तो वर्तते, यतोहि उभौ देशौ स्वीय कूटनीतिक सम्बन्धस्य 25 वर्षाणि आचरतः। राष्ट्रपतिः अवदन् यत् उभयोः देशयोः मध्ये द्विपाक्षिक सम्बन्धाः सौहार्दपूर्णाः, मैत्रीपूर्णाः च सन्ति। औषधपदार्थ, सामुद्रिक विज्ञान, ऋतुविज्ञान, आपदा प्रतिरोधी, आधारभूत संरचना, आंकिकीय प्रदान, प्रौद्योगिकी चेत्यादिषु क्षेत्रेषु पारस्परिक कार्यं कर्तुं संभावना अस्ति इति। राष्ट्रपति मुर्मू अवदत् भारतस्य डोमिनिकन गणराज्यस्य च सातत्येन आदान प्रदानं, सम्पर्कः च द्विपक्षीय सम्बन्धान् इतोऽपि सुदृढी करिष्यति इति द्वयोः नेत्रोः मतम् आसीत्। चीनदेशस्य हांगझौ नगरे प्रचलति एशिया क्रीडायां भारतस्य पदकस्य क्रमः नैरन्तर्येण प्रचलति। भारतम् अद्यावधौ 10 दिने कांस्यपदकद्वयं प्राप्तवान् येन कुल त्रिषष्ठी पदकानि जातानि इति वार्ताः।